अथ द्वादशोऽध्यायः शौनक उवाच अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरु तेजसा उत्तरायाहतो गर्भ ईशेनाजीवितः पुनः तस्य जन्म महाबुद्धे कर्माणि च महात्मनः निधनम् च यथैवासीत् स प्रत्यगतवान् यथा तदिदम् श्रोतुमिच्छामो गदितुम् यदि मन्यसे ब्रूहिण श्रद्दधानानाम् यस्य ज्ञानमदाच्छुकः सूत उवाच अपि पलद्धर्मराज पितृवद्रञ्जयन् प्रजा निष्प्रियः सर्वकामेभ्यः कृष्णपादाब्जसेवया सम्पदः क्रतमो लोका महिषी भ्रातरो मयि जम्बूद्वीपाधिपत्यञ्च यशश्च त्रिदिवम् गतम् किन्ते कामासुरस्पार्हा मुकुन्दमनसो द्विजा अधिजरुः मुदम् राज्ञः क्षुदितस्य यथेतरे मातुर्गतो वि तदार्घुनन्दन ददर्श पुरुषम् कञ्चिद्दह्यमानोऽस्त्र तेजसा अङ्गुष्ठमात्रममलम् स्फुरत्पुरटकोम् मौलिनम् अपि च दर्शनम् श्यामम् तडिद्वासस्मच्युतम् श्रीमद्दीर्घचतुर्बाहुम् तप्तकाञ्चनकुण्डलम् शतदाक्षम् तदा पाणिमात्मनः सर्वतो दिशम् परिभ्रमन्तमुल्काभ्याम् भ्रामयन्तम् गदाम् मुहुः अस्त्रचेदः स्वगदया निहारमिव गोपतिः विदमन्तम् सन्निकर्षे पर्यीक्षतस्कैत्यसौ विधूय तदमेयात्मा भगवान् धर्मगुब्भिभुः मिषतो दशमास्यस्य तत्रैवान्तर्ददे हरिः ततः सर्वगुणोदर्के सानुकूलग्रहोदये जज्ञे वंशधरः पाण्डुर्भूय पाण्डुरिवौजसा तस्य प्रीतमना राजा विप्रैर्धौम्यकृपाधिभिः जातकम् कारयामास वाचयित्वा च मङ्गलम् हिरण्यम् ग्रामान् हस्त्यश्वान् निपादास्वन्नम् च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् तमोचुर्ब्राह्मणास्तुष्टा राजानम् प्रश्रयान्वितम् एष यस्मिन् प्रजातन्तौ पुरूणाम् पौरवर्षभ दैवेन प्रतिघातेन शुक्ले संस्थामुपेयुषि क्रातोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः भविष्यति न सन्देहो महाभागवतो महान् युधिष्ठिर उवाच अप्येष वंशान् राजर्षिन् पुण्यश्लोकान् महात्मन अनुवर्तितास्विद्यशसा साधुवादेन सत्तमाः ब्राह्मणा पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानव हिरम् ब्रह्मण्य सत्यसन्धश्च रामोदासरथिर्यथा एष दाता शरण्यश्च यथा यौषी नरशीतनता स्वानम् धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः हुताश इव दुर्धर्ष समुद्र इव दुस्तरः मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव तितिक्षुर्वसुधेवासौ सहिष्णु पितराविव पितामह समः साम्ये प्रसादे गिरिशोपमः आश्रयः सर्वभूतानाम् यथा देवो रमाश्रयः सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः रान्तिदेव इवोदारो ययातिरिव धार्मिकः धृत्या बलिस्समः कृष्णे प्रह्लाद इव सद्ग्रह आहर्तैषोऽश्वमेधानाम् वृद्धानाम् पर्युपासकः राजर्षिणाम् जनयिता शास्त्राचोत्पथगामिनाम् निगृहीता कलेरेष भुवो धर्मस्य कारणात् तक्षकादात्मनो मृत्युम् विदिपुत्रोपसर्जितात् प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदम् हरेः जिज्ञासितात्मयाथात्म्यो मुनेर्व्याससुतादसौ हित्वेदम् नृपगङ्गायाम् यास्यत्यद्धाकुतो भयम् इति राज्ञः उपादिश्य विप्राः जातककोविदाः लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् स एष लोके विख्यातः परीक्षेदिति यत्प्रभुः गर्भे दृष्टम् अनुध्यायन् परीक्षेत नरेष्विह स राजपुत्रो ववृधे आशु शुक्ल इवोडपः इवोडुपः आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् यक्षमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया राजा लब्धधनो दध्या वन्यत्र करदण्डयोः तदभिप्रेतमालक्ष्य भ्रातरोच्युतचोदिताः धनम् प्रहीणमाजर्हुरुदीच्याम् दिशि भूरिशः तेन संवृत संभारो धर्मपुत्रो युधिष्ठिरः वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समजयद्धरिम् आहुतो भगवान् राजव्राज्ञा व्याजयित्वा द्विजैर्नृपम् उवास कतिचिन्मासान् सुहृदाम् प्रियकाम्यया ततो राज्ञाभ्यनुज्ञातः कृष्णया सह बन्धुभिः ययौ द्वारवतीम् रब्रह्मन् सार्जुनो यदुभिर्वृतः इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथमस्कन्धे नैमिषीयोपाख्याने परीक्षित जन्माद्युत्कर्षो नाम द्वादशोऽध्यायः।